प्रायशः एकादश मासाभ्यन्तरात् अस्माभिः भगवद्गीतायाः अध्ययनं क्रियमाणः वर्तते. तत्र प्रथमाध्याये यावत् प्रथमश्लोके एव तत्र धर्मशास्त्रस्य नियममपि उक्तमस्ति. धर्म इति आरभ्य धर्मक्षेत्रे इति पदे धर्म इति आरभ्य संजय इति जय शब्दात् तत्र पूरितमस्ति. यतो धर्मस्ततो जयः इति नियमः तत्र निबद्धः वर्तते. धर्मक्षेत्रे कुरुक्षेत्रे इति तत्र वाक्ये अपि शब्दस्य व्यत्यस्तेन किञ्चित् व्यत्यस्तेन अस्माभिः ज्ञायते. तत्र पूर्णगीतायाः वेदानाञ्च सारः यत् वर्तते धर्मक्षेत्रे कुरुक्षेत्रे इति यत् अस्ति तत्र पदव्यासेन क्षेत्रे क्षेत्रे धर्मं कुरु इत्येव तत्र अर्थभावः तत्र प्रत्यागच्छति. एवमस्माभिः दृष्टमासीत्. अपि च यत्र मामकाः तावकाः इति भेदः वर्तते तत्र सर्वदा पराजयः एव भवति इत्यपि अस्माभिः ज्ञातुं शक्यते. प्रथमश्लोकेनैव एतत् सर्वं ज्ञातुं शक्यते. गीतायाः महत्त्वमपि अस्माभिः दृष्टमासीत्. गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते इति उक्तमस्ति. गीता सर्वपापप्रणाशिनी भवति. गीतायाः अध्ययनं पठनं पारायणं श्रवणं मननम् इत्यादिकम् अतीव पुण्याय भवति. साधनामार्गेषु पुण्याय भवति. जीवनमौल्यवत् पश्यामश्चेदपि इवन् एज अ मोरल् वेल्यू ग्रन्थ गीतायाः तत्र अत्युत्तमं स्थानं वर्तते. द ओन्ली रेमिडी विच् केन् क्यूर् आल् द प्राब्लम्स् इन् दिस् वर्ल्ड् वुड् बी श्रीमद्भगवद्गीता. यत्किमपि भवान् तत्र प्राब्लम् स्वीकुर्वन्तु तत्र गीतायाः किञ्चित् सावधानेन गीतायाः अध्ययनं कृत्वा गीतायाः मौल्यविशेषान् यदि वयं तत्र नियोजयामः तर्हि अतीव श्रेयसे भवते इत्यपि अस्माभिः दृष्टमासीत्. एवं वर्तमाने सति द्वितीयाध्याये आत्मनः परिचयः स्थितप्रज्ञस्य लक्षणानि दृष्टमस्ति. किञ्चित् कर्ममार्गप्रवेशोऽपि क्रियते तत्र. दूरेण ह्यवरं कर्म इति वाक्येन अर्जुनः किञ्चित् भ्रमितः भूत्वा सः अनन्तरं पृच्छति किमर्थं तत्र यदि कर्म मार्गात् ज्ञानमार्गः जायसि चेत् अहं ज्ञानमार्गे गच्छामि. द कामन् क्वेश्चन् विच् एव्रि वन् आफ् अस् आस्क्स् दट् इफ् ज्ञान इस् इम्पार्टेण्ट् ओके ऐल् स्टाप् डूयिङ्ग् आल् कर्म अण्ड् ऐल् स्टार्ट् गोयिङ्ग् टुवर्ड्स् ज्ञान. तर्हि अस्माभिः तत्र वैद्यस्य उदाहरणं स्वीकृतमस्ति. वि टुक् द एक्साम्पल् इन्सिडेण्ट् दृष्टान्त आफ् नाट् बीङ्ग् वेल् हेविङ्ग् सम् डिसीस् अण्ड् हौ वि गो टु द डाक्टर् अण्ड् द डाक्टर् गिव्स् अस् सम् मेडिसन्. वि हेव् टु टेक् द मेडिसन् इन् रेगुलर् डोसस् इन् द करेक्ट् ग्रामेज् अट् द करेक्ट् टैम् and as prescribed by the doctor. Why should we take it? So that one day we stop taking medicines, so that we are cured of our diseases. Param katham nyayate tat punah doctor samipe eva gatva tatra chikitsam kritva eva gnyayate. Similarly, we have the prescribed duties also for us. Asmakam samsara vyadhi nashanartam chitta shuddhi praptyartam nishkamya karma kartavyameva. वाट् एवर् अलोकेटेड् कर्म अस्ति निष्काम्यतया कर्तव्यमेव. तस्मिन् मध्ये भक्ति श्रद्धा इत्याख्य जलस्य सिञ्चनमपि कर्तव्यमेव. सो वित् भक्ति अण्ड् श्रद्धा निष्काम्यकर्म वेन् वन् पर्सन् इस् डूयिङ्ग् कान्स्टेण्ट्लि तत्र चित्तशुद्धिः भवति. प्रथमं तावत् चित्तशुद्धिः इस् द फस्ट् step of achievement which we would surely need. Tadanantaram Viveka, Vairagya, Shamadhi, Shatka Sampatti and Mumukshutvam, these four should come. Tatrapi Mumukshutvam, how it is the kind of Mumukshutvam we should need? It is not that Yevameva Tatra Mumukshutvam Agachati, Moksham Agachati Chet Bhavatu. Let if Moksha comes, let it happen. Not like that. Yatha Tatra Ekasya Purushasya Shirasi Yadi Vandhihi Tatra Agnihi Asti Chete Katham Saha Jala Purvakam Gachati Dhavati Tadrisha Ritya. When a house is on fire and a person is sleeping in his cot and the cot is on fire and the fire has reached almost his hairs, Tada Saha Kim Saha Chintayati Yatma Dhanasyutam Kutrasti Mama documents Kutrasti Mama Bandhavaha Katham Santi Sarve Kshemataya Santiva Iti Sarvam Saha Pashyativa Deva Pashyati Saha Atmanaha Rakshanartam Kutra Jalam Vartate Kutra Aham Tatra Nimajjanam Karomi. Where will I dive to a water pool? Tadeva Saha Chintayati Tadrusha Ekagraritya Yada Moksha ka, Mokshasya Akanksha Mokshasya Vancha Bhavati Moksham Praptum Ichuhu Bhavati Yada Sadakaha Tada Eva Mumukshutva Praptam Iti Nyayate. That is the level of seriousness of Moksha which should be there. Lot of Bhakta Charitam we have seen also, wherein lot of Bhaktas have been able to achieve sadhana because they had a never dying desire to see the Lord. Tatra devata sakshatkarartam tesham ekagrataya tatra vancha asite. They did not budge for anything. And today we talk about those bhaktas, Tukaram, Jnaneshwar, Jayadevar, Kabirdas, Tulasidas, all these lot of bhakta charitam we have heard about it. Tadrsha ritya yada tatra mumukshutvasya mumukshutvam bhavati tada eva sadhanayaha tatra sanyasa margasya praveshah kartum shakyate ityapi asmabhi drishtamasti. We have seen all this. Tatrapi tritiyadhyaye, then the distinction between jnana yoga karma yoga is being made. Tatra karmanah pramukhyatvam, and why people should do the karma. Kimartham tavat ye tatra sakshatkritaha sayujya patavi praptaha api tatra ye santi te api kimartham karmacharanam kurvanti iti prishte sati yadyadacharati sreshtah tattadeva itarojanah sa yat pramanam kurute lokastadanvartate. A very very important shloka at all levels again, at a house level, at a social organization level, at a place level, at a country level, at a corporate level, organization level, everywhere it is very important for leaders. Karma yoga, karma adhyaye yadi vayam pashyamaschete tritiya adhyaye, lot of principle based, manual based, very implementable shlokas are there, which every leader, man of perfection should always follow. Tatra, even in a small activity, even in a parenting kind of activity, yadi vayam pashyamaschete tatra bala shikshartamapi, tatra an ounce of practice is worth more than thousands of words. Tatra bhashanena yadi vayam kimapi vadamaschete tena avagamanti te anukaranam nakurvanti param yati vayam acharamaha tadeva te anukaranam kurvanti balaha evam sayat pramanam kurute balaha tadanuvarte evam tatra. In every stage etat sarvam applicable bhavati shlokaha etat sarvam asmabhi sadhana margeshu api etat asmabhi arthavagmanam kritamasti. For example again, okay, yadyadacharati sreshtah janakadeha iti uktam tarhi pratyaksharitya udaharanam diyatam iti arjunena prishte sati dvavimshati shlokaha vartate. Name parthasti kartavyam, krishnah vadati tatra mama trishu lokeshu api kartavyam kimapi nasti. I don't have any allocated duty as such which I have to do. Yadyapi, and I don't need kimartham tavat कार्यं कर्म कर्तव्यं यदि अपेक्षा अस्ति चेत् वाई शुड समबडी वर्क बिकॉज ही हैज एन अपेक्षा टू अर्न सो दैट ही कैन बी हैप्पी तत्र मटेरियलिस्टिक लौकिकरीत्या यत् तस्य सुखं तेन प्राप्तुं तत्र वांछा अस्ति चेत् तदर्थं कार्य कर्तव्यं यदि तत्र पापक्षयं कृत्वा पुण्यसञ्चयं कर्तव्यं नो चेत् उभाभ्यामपि तत्र मुक्तिः प्राप्तव्यं चेत् तदनन्तरं तदर्थं कर्म कर्तव्यं शास्त्रविहित कर्म कर्तव्यं यत् अविहितमस्ति तत् कदापि न कर्तव्यं वाट् एवर् हेस् बीन् प्रिस्क्रैब्ड् इन् द रूल्स् प्लीज् डू इट् वाट् एवर् हेस् बीन् नाट् प्रिस्क्रैब्ड् दट् शुड् नेवर् बी डन् एतद् नैव भवति यत् तत्र न उक्तं किल मा कर्तव्यमिति न उक्तं किल तर्हि अहं करोमि इति रीत्या आचरणं सम्यक् न भवति एतत् सर्वमपि अस्माभिः पूर्वं दृष्टमासीत् कृष्णः वदति त्रिषु लोकेषु मम कर्तव्यं किमपि नास्ति किमपि प्राप्तव्यम् अपि नास्ति परमपि तथापि अहं सर्वदा कर्मणि एव वर्ते येट् ऐ स्टिल् कण्टिन्यू डूयिङ्ग् आल् द ड्यूटीस् विच् आर् देर् बाल्यावस्थायां बालवत् मया तत्र सर्वं साधितमस्ति तत्र जलस्तम्भं कृत्वा वसुदेवस्य तत्र स्थलं मया कारितम् अनन्तरं यशोदायाः तत्र पुत्रवत् मया सर्वं कार्यं कृतं गोवर्धन उद्धरणेन जनरक्षणं कृतं बाललीलया सर्वान् सह रञ्जयामास अनन्तरं यौवनावस्थायां कंसादीनां वधं कृत्वा सर्वान् असुरान् निवारयामास दुष्टशिक्षणं कारयामास अनन्तरं उग्रसेनादीन् पुनः संस्थाप्य शिष्टरक्षणमपि कृतवान् सान्दीपिनी गुरुसमीपं गत्वा यद्पि सर्वशास्त्राणां सर्वविद्यानां प्रवक्ता एव अयमेव वेदाशास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् इति उक्तमस्ति तादृशजनार्दनः एव यदा तत्र सान्दीपिनिगुरोः समीपं गत्वा गुरुकुलवासं कृत्वा सर्वं सः पठति गुरुदक्षिणार्थमपि तत्र गुरुपुत्रम् आनयति अनन्तरं तावत् पाण्डवानां रक्षणं दुर्योधनादीनां मारणं दूतत्वेन सह गतवान् तत्र सारथिरूपेण अर्जुनार्थम् अर्जुनस्य कृते सह साहाय्यं कृतवान् पाण्डवानां साहाय्यं कृतवान् एवं तत्र वयं पश्यामश्चेत् आल् अलोकेटेड् ड्यूटीस् यद्यपि आसीत् तत्र अवतारकार्यमासीत् तत्सर्वम् अतीव श्रद्धया वित् एक्स्ट्रीम् पर्फेक्षन् वित् इन् अ वेरि स्मैलिङ्ग् वे लीलया एण्ड् बीङ्ग् डिटाच्ड् टोटलि फ्रम् आल् दीस् आक्टिविटीस् सः सर्वं कारितवान् एवं तदर्थमेव उक्तं कृष्णं वन्दे जगद्गुरुं सः जगद्गुरुः द फस्ट् जगद्गुरु whom we can very easily follow, an impeccable person, dosha rahitah yaha vartate, tadrsha jagadgurum yadi vayam tatra anusaramah ativa kshemaya bhavati. Evam tatra uktamasti, apicha saha tatra warning message api dadati, yadi aham tatra atandritah karmani na varteyam, tada janaha avashyam mam palayanti. This is the very difficult situation with Shrestaha, with people who are considered as idols and who are benchmark people in the society or in the country. Tatra, if they do lot of good things, very very few people will follow it. But if they either stop doing activities or if they do something which is not supposed to be done, people will surely look at it and say that they will follow it. Because अतीव तत्र देर् इस् अ स्माल् उक्तिः अस्ति मेनेज्मेण्ट् मध्ये सद्गुणप्राप्त्यर्थम् एकविंशतिदिनानि भवन्ति टु गेट् अ न्यू हेबिट् टु गेट् एनिथिङ्ग् विच् इस् न्यू तत्र इट् टेक्स् मिनिमम् आफ् 21 डेस् इवन् आस् सिम्पल् एस् गेटिङ्ग् अप् अर्ली इन् द मार्निङ्ग् ओन्ली इफ् यु प्राक्टिस् इट् 21 डेस् कण्टिन्यूस्लि आर् अट्लीस्ट् 21 डेस् आर् मोर् देन् दट् हेबिट् विल् स्टार्ट् अट्लीस्ट् डेवलपिङ्ग् within ourselves. Param dushta buddhi yadasti tat jhatiti agachati. एनी नॉट सो गुड हैबिट यदस्ति तत् झटिति तत्र प्राप्नोति। एवमेव तत्र अतीव सावधानरीत्या 23 श्लोक उक्तमस्ति, यदि अहम् कर्मणि जातु अतन्द्रितः नवर्तेयम् सर्वशः मम मनुष्याः मम मार्गम् अनुसरन्ति अनुवर्तन्ते इति सः वदति। उत्सीदे युरिमे लोकाः एण्ड् यदि अहम् तत्र कर्म न करोमि चेत् संकरस्य कर्ता स्याम्। कुलसंकरः तत्र प्रथमाध्याये अर्जुनेन उक्तमस्ति, न श्रूयते वा? श्रूयते वा इति पश्यतु। तत्र प्रथमाध्याये अस्माभिः उक्तमस्ति, भवतु प्रथमाध्याये उक्तमस्ति तत्र संकरस्य कुलसंकरः इति अर्जुनः उक्तवान्, यदि अहम् एतान् मारयामि एते अनन्तरम् तत्र अन्यान् विवाहम् कुर्वन्ति तेन कुलसङ्करः भवति इत्यादिकम् सर्वम् उक्तमासीत्। परम् कृष्णः वदति अहम् यदि कर्म न कुर्याम् चेत् इमे लोकाः उत्सीदेयुः। इफ् ऐ डोण्ट् डू द ड्यूटी, वाट् इस् द ड्यूटी? अत्र सः नारायणस्य विष्णोः कर्म वदति, सृष्टि स्थिति लय। स्थितिकर्ता महाविष्णुः, स्थितिकर्ता तत्र तस्य कार्यं यदि सः न करोति चेत् तेन तत्र इमे लोकाः विनश्येयुः, उत्सीदेयुः, नाशं प्राप्नुयुः। तेन तत्र सर्वत्र संकरस्य अहं कर्ता स्याम्, ऐ विल् बिकम् द कर्ता आफ् संकर। इमाः प्रजाः उपहन्याम्, सर्वे प्रजाः नष्टाः भवन्ति, सर्वे तत्र अतीव क्लेशार्थम् अवगताः भवन्ति इति तत्र सः वदति। अग्रे अस्माभिः दृष्टमासीत् सक्ताः कर्मण्यविद्वांसः यथा कुर्वन्ति भारत, कुर्याद् विद्वांस तथा सक्तः चिकीर्षुर्लोकसङ्ग्रहम्। वेरि वेरि गुड् कम्पेरिटिव् श्लोक, वेरि नैस् कान्सेप्ट् आक्चुलि फार् कृष्ण हिम्सेल्फ् टु एक्स्प्लेन् दिस्, एतत् सम्यगस्ति। तत्र ये सक्ताः भवन्ति, people who are interested in getting some fruits of their action, tatra yadi bhogadikam aishwaryadikam dhanakanak vastu vahanadikam tatra ye vanchanti te sarve api karma acharanam kurvanti, tatra veda vedangeshu tatra arishta shantyartham abhishta praptyartham samasta udvaha labha siddhyartham putra pautra praptyartham ityadi tatra manokamanayaha tatra pattika ativa dirgha bhavati sarvada, tadrusha pattikayaha sadhanartham yada tatra janaha karma kurvanti tada ativa dhritya niyamena kurvanti yataha tatra karma lopaha bhavati chet phalasya lopaha api bhavati iti te jananti avashyam, तदर्थं ते किं कुर्वन्ति अतीव श्रद्धया भक्त्या किमपि तत्र द्रव्यलोपं विना कर्मलोपं विना मन्त्रतन्त्रक्रियालोपं विना तत्र अतीव श्रद्धया आचार्यान् स्वीकृत्य जनान् स्वीकृत्य कर्म कुर्वन्ति, परमपि ते अविद्वांसः एव, स्टिल् दे आर् कन्सिडर्ड् एस् नान् स्कालर्स्। अगेन् वीसा the meaning of the word avidvamsaha here does not mean that they do not know the veda, they do not know the shastras, te sarve veda vedanga sarve parangataha eva, they know the shrauta prayoga as the back of their hand, te sarvam samyak jananti, they know how to perform the yajna, they know the jyotish shastra, they know the phalakanda, they know the karma kanda very well, etat karma acharanena evam phalam labhyeta iti te sarve samyak jananti eva, paramapi but still krishna calls them as avidvamsah. Why? We saw the definition, panditaah avidvamsah, all these are who ye tatra atmagyanam praptavantah, those who know the difference between atma anatma, those who know that this body is perishable, tatra brahma satyam, the only thing which is true is the supreme spirit yatasti brahman parabrahman eva satyam anyat sarvam abrahma bhuvanallokaah पुनरावर्तिनोर्जुन, तत्र टिल् द सृष्टिकर्ता ब्रह्मपर्यन्तं सर्वे तत्र टिल् दट् एव्रिबडि हेज् अ रीबर्त्, तावत्पर्यन्तं सर्वं मिथ्या एव, जगन्मिथ्या। एवं तत्र पश्यामश्चेत् So one who does not know this, he is an avidvamsa only. One who does not know that karma phala anapekshaya karma kartavyam, we should do the karma without expecting fruits, but still do it with the ultimate perfection and still do it excellently well without leaving anything, and do it only as per whatever is prescribed in the shastras, whatever is allocated to me, that my duties I will do. I will not do swadharme nidhanam shreyah paradharmo bhayavah, I will not do the other person's duty, I will not do what is not prescribed for me. I will also be in a position such as not to do the duties. I will not sit idle. Tadapi na karomi etat sarvam yaha na janati saha avidwan eva tatha eva. So an avidwan, but still when he wants the fruits, with how much of devotion? Very simple. Yada asmakam kimapi vancha vartate tatra sundara kanda parayanadikam ativa shraddhaya niyamena vayam kurmaha param. Krishna vadati vidwan atma vit yaha asti atmam yaha janati saha eva vidwan natu kevalam tatra degree ityadikam yaha praptavan saha vidwan neiva tadrasha vidwan saha kim karoti saha lokasangraham chikirshuhu sarvani karmani karoti lokakshemartham tatra asmabhi drishtamasti madhvacharyaha ramanujacharyaha shankaracharyaha sadashiva brahmendradayaha tyagarajacharyaha ye santi sva kshetreshu yadi tatra namasankirtana kshetram va bhavatu shridharayyavad bodhendradayaha మరుదాలూర్ జగత్ మరుదానల్లూర్ స్వామినః ఏ సంతి తుకారామాదయః అభంగ కీర్తన రచయితారః ఏ సంతి తే సర్వే భక్త పరంపరాదయః ఏ సంతి తే సర్వే అపి అపి చ తత్ర రాజర్షీన్ ఏ సంతి జనకాదయః శివాజీ మహారాజ ప్రభృతాయః రామదాస్ ఆదయః సర్వాన్ వయం అస్మాభిః ద్రష్టుం శక్యతే తే సర్వే కిం కృతవంతః లోక సంగ్రహార్థం ఫర్ ద సేక్ ఆఫ్ ద వరల్డ్. They did all those activities even with more perfection and more niyamaritya than they would do for themselves. Asmabhi adya idanimapi drashtum shakyate katham jagadgusungeri guravaha jagadguravaha chandi havanadikam tatra navaratri mahotsavadikam pratidinasya pujadikam tatra pratidinesho api even for a day, every day, at least for 20-22 hours of sadhanadikam they have. Still for lokakshema they do all these activities and then do whatever is the prescribed duties for them. Evam ritya te jana sangrahartham karyam kurvanti. Saha eva tadrsha ritya yaha vartate saha eva tatra sreshtha nayakatvena bhavitum arhaha. Evam pashyamaschete for all the difficult situations, political, economical, ityadikam situations, yadi vayam tatra netar netrin netar tatra nayakan pashyamaschete tatra yadi te sarve gita principles follow kurvanti chete tatra deshah rashtrah tatra vishvam akhilam krishnam vishvam tavat ativa kshemaya bhavati eva iti asmabhi ativa saralataya avagantum shakyate kila. ఏవం హే భారత కర్మ కర్మణి సక్తాః అవిద్వాంసః యథా కుర్వంతి దోస్ హూ వాంట్ ద ఫ్రూట్స్ హౌ మచ్ ఆఫ్ డెడికేటెడ్లీ దే డూ తథా లోక సంగ్రహం చికీర్షుః తత్ర టు గైడ్ ద పీపుల్ టు బీ ఇన్ దేర్ ఓన్ స్వధర్మ టు గైడ్ దెమ్ టు గైడ్ ద పీపుల్ సో దట్ దే ఫాలో దెమ్ అండ్ డూ ఇట్ ప్రాపర్లీ టు ఫార్ ద ప్రేయర్స్ ఆఫ్ ద టు ప్రే ఫార్ ద వరల్డ్ ఆల్సో దెర్ ఆర్ టూ లోక సంగ్రహే తత్ర అర్థద్వయం వర్తతే వన్ do the activities so that the other people also follow them and they know what is the right thing to do, how we should do all the activities. Second tavate, when they do, they pray nothing for themselves, they pray only for lokakshemam. Evam lokasangraham chikirshuhu asaktaha vidvanapi tatha eva tadrsha shraddhaya eva tadrsha dhritya niyamena cha karyam kuryat. Evam asmabhi drishtamasite. Very, very important, powerful shlokas which we have to implement. Tadarthameva kinchit revision kurmaha idya adya. Nabuddhibedam janayet ajnanam karma sanginam joshayet sarva karmani vidwan yukta samacharan. Yuktaha vidwan kim karoti tatra jnani karma saktanam ajnaninam samshayam na utpadayet sakala kartavyani kurvanne taihi sevayet. So, tatra యద్యపి తత్ర జ్ఞానీ భవతి సహ అన్యేషాం सर्व जनानामपि सर्वान् संशयान् सर्वं तत्र सः निवारणं कृत्वा सः स्वयं सर्वकर्माणि जोषयेत्. सो वेन् ही डस् एक्टिविटीस् लैक् दिस् एण्ड् अदर् पीपल् आल्सो कम् एण्ड् आस्क् हिम् तत्र अहं तत्र ज्ञानमार्गे गच्छामि, मम कर्ममार्गस्य आवश्यकं नास्ति इत्यादिकं सर्वे तत्र सन्यासं ददातु मह्यम् इति यदा ते सर्वे पृच्छन्ति, बहु जनाः आगच्छन्ति जगद्गुरुसमीपे अपि आगत्य ते पृच्छन्ति एवं परं तत्र तैः किं क्रियते, तत्र यावत् परिपक्वता नास्ति तावत्पर्यन्तं तत्र कर्माणि आचरितव्यमेव. जोषयेत् सर्वकर्माणि, तत्र सर्वान् अन्यानपि तत्र कर्मसङ्गिनाम् अज्ञानाम् अपि तत्र सः कर्माचरणे जोषयेतेव. वाट् इस् द इन्नर् मीनिङ्ग् आफ् दिस् श्लोक? द ज्ञानी शुड् नाट् कन्फ्यूस् द पीपल् हू आर् अटाच्ड् टु वर्क् बट् शुड् स्टिल् कण्टिन्यू टु इन्स्पैर् देम् टु डू देर् वर्क्. वाट् इस् द मीनिङ्ग् आफ् इट्? That means, if a leader or a Nayaka, Jagadguru, Ityadayah, survey, if they start telling, Tatra, Karma Margaha, Kevalam Primary Margaha, Jnana Marga, Pratigantavyam, Jnana Marga Meva, Samyak Bhavati, Na Karmana, Na Prajaya, Na Dhanena, Tyagena, Ekena, Amritattva Manashuhu. This Vakya is enough. This is the Upanishad Vakya. Na karmana na prajaya dhane na tyage naike amrtatvamanashu. Upanishad Vakya. If you see, it says na karmana, not by actions, na prajaya, not by the prajotpatti ityadi vihita karma chanena, na dhane na dhanarjanam dharma artha artha yata artha chaturvida phalapurusha arte artharjanena tatra amrtatvam na bhavati. Amrtatvam ityukte muktihi. साक्षात्कारः, मुक्तिः न भवति, केवलं त्यागेन भवति इति वाक्यं यदि कोऽपि शृणोति चेत् सः सर्वं त्यागं कृत्वा गच्छति, कर्माणि अपि त्यागं कृत्वा सः गच्छति चेत् तत्र कोऽपि कर्माचरणं न करोति. इट् इस् अ कन्फ्यूसिङ्ग् स्टेट्मेण्ट्. तदर्थमेव गीताचार्यः हि गिव्स् वन् मोर् वार्निङ्ग् स्टेट्मेण्ट् वेर् आल् गीताचार्य इस् वेरि वेरि कन्सर्वेटिव् इन् हिस् अप्रोच् वेन् हि टेल्स् सम्थिङ्ग्. And if there is any small possibility of somebody misunderstanding, immediately he issues a warning statement. Evam, tatra, the vidwans who are there should always continue motivating everybody to do the karma. And slowly as they are doing the karma, they should get the chitta shuddhi, they should slowly get detached from the fruits. So, tyaga means Nishkamya karma, means tyaga of the fruits first. That clarity should always be given to the people. Continue prerana, doing prerana to them. Joshayet sarva karmani. Involve everybody in the karma, but sacrifice only the fruits. That clarity should always be brought within the people. Otherwise, what will happen? Sarve tatra karma tyagam kurvanti, tatra lokasya nashaha bhavati. सर्वत्र संशयः, विषादः, कन्फ्यूशन्स्, केओस् एव भवति. एवं तत्र ही शुड् एङ्गेज् आल् द इवन् द पीपल् हु आर् डूयिङ्ग् द कर्माचरणं वित् श्रद्धा. तत्र यदि वाञ्छा फलापेक्षया कर्म कुर्वन्ति चेदपि तान् तत्र कर्माचरणम् अवश्यं कुर्वन्तु. प्लीस् कण्टिन्यू डूयिङ्ग् इट् वित् द सेम् श्रद्धा, बट् एस् यु प्रोसीड् एण्ड् एस् यु गेट् द चित्तशुद्धि, कैण्ड्ली स्टार्ट् रिनौन्सिङ्ग् द फ्रूट्स् आफ् इट् एण्ड् go towards the jnana marga iti vaktavyam iti he gives a small warning statement. Jnani purushah karma saktanam avidusham bhrantim notpadayet swam satkaryani kurvan tadvara tanapi sah karayet iti tatra shlokasya avagamanam kartum shakyate. Prakrite kriyamanani gune karmani sarvashah ahankara vimudhatma kartahamati iti manyate. Again, excellent shloka. Sarve tatra chintayanti maya karyam kriyate aham karomiti vritha abhimanaha bhavati param ayam lokaha swakarma sutra grathitaha bhavati. Tatra lokaha tavat swakarma sutra grathitaha bhavati sarvada. There is a cause and effect relationship always to all the activities and fruits and everything which happens around the world. Tatra ahankara vimudhatma purusha eva chinteti maya kriyate iti. Tatra manushyah sarvada chinteti tena sarvam kartum shakyate iti. Tatra even as a small thing. Tatra narikela madhye yadi vayam pashyamaschet jalam asmabhi sthapitum shakyate va. Tatra madhye jalam vartate anantaram narikela tatra shakalam vartate tadupari api raksha kavacham bhavati yadat sarvam kena kritamasti tat laghu asti evam pashyamaschet pancha bhutani santi yena sahayena eva vayam sarve jivanam kurmaha panchabhutanam tatra stihi panchabhutanam stitihi rakshanah tatra tesham balancing yad bhavati tat sarvam kena kriyate evam tatra manushyah yada yadi chintayati ahameva karomi sarvam iti tatra ahankar vimudhatma eva aham karta iti manyate. Pashyamah ahankar vimudhatma prakritehe gunaihi sarvashah kriyamanani karmani ahameva karomi iti saha chintayati tatra sarvatra prakritya kriyamanani bhavanti tatra deha indradayah sarvepi prakritehe vikarabhutaha yav bhavanti te eva karmani kurvanti natu atma. The other perspective angle to this is whatever is happening to us, we have seen this example. Tatra chitra mandira madhye screen bhavati chitra mandire tadupari jananam aropaha bhavati yada tatra chitrasya aropaha. When the images are produced on the screen, different colors shades are there, sarvam bhavati param chitram tavat shweta rupena iva bhavati yada tatra aropaha sthagitah bhavati chitrasya darshanam na bhavati. Evameva natya range pashyamaschete different characters are coming on stage and going back. Tarhi yaha tatra, one who is in the backstage does not mean that he is no more there in this world. It only means he is in the backstage. Evam tatra udaharanadikam asmabhi drishtamasti. Atma yadasti, atma kartava bhoktava nasti. Shariraha eva tatra karyam sarvam karoti. Deha indradayaha te sarve eva karyam kurvanti. Teshameva maranam api bhavati iti tatra asmabhi arthavaganam kartum shakyate. We have to take this to a situation wherein the maranam, jananam, maranam ityarikam sarvam tavat dehasyaiva natu atmanaha iti arthavaganam kartavyam. Tena kim bhavati anantaram atma tavat prati purusheshu api tatra jivatmanaha tatra the spark of the ultimate supreme is present in each of us, which is giving the jiva to us. Tadarthameva it is called as jivatma, because without that spark this will again become a shava. It is only a preta sharira. So that spark is given to us. Evam tatra ayam punaha atma yada prakriti janyena ahankarena yuktah bhavati tada ahameva sarvesham karmanam karta iti janati iti spashtam kritam asti. So only with some amount of ego, the man thinks that I am the doer, which is again the cause of all the problems in this world. Yadi vayam kinchiti chintam kurmah chete, tatra the four letters, the three letters which are there, EGO, ego, is the only root cause of every problem in this world. And the only solution to that will be a four letter word called LOE, love, which is towards the Almighty. Tatra Bhagavat prati pritihi nirantaram pritihi avichinna avyajaritya pritihi prema eda bhavati. When the it is replaced by love, tadeva sarva problems krite solution bhavitum shakyate iti asmabhi asmayam sarve jani maha eva sarvatra. We have heard of it also from lot of people from in different upanyasas and different places. Sloka number tatra 27 krite asmabhi tatra prayashah kritam iti manye sa vyakarana bhagah drishtam iti manye karta aham savarnadirga ahankarena vimudah ahankar vimudah अहंकार विमूढः आत्मायसि सह बहुव्रीहिः प्रकृतिः प्र उपसर्गपूर्वक कृ धातोः तिन् प्रत्ययः कृ क्रियमाणानि क्रियमाणानि डुक्रिञ्च् कृ धातोः शानच् प्रत्ययः वर्तमान कृदन्तः कर्मणि भवति कर्मणि तत् लट् क्रियमाणानि भवति सर्वशः सर्व प्लस् शस् इति तद्धितभागः श्लोक नंबर 28 पश्यामः तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः गुणागुणेषु वर्तन्त इति मत्वा न सज्जते अद्य विजयदशमी प्रयुक्तत्वेन तत्र नूतन किमपि अध्ययनं कर्तव्यम् अस्माभिः नूतन श्लोकमपि स्वीकुर्मः अद्य समयं लभ्यते चेत् ये भवतां गुरवः सन्ति तेषां स्मरणं नमनं वा कुर्वन्तु अनन्तरं नूतनं किमपि अद्य तत्र विषयं सर्वे अधिगच्छन्तु सर्वेभ्यः श्रेयो भवतु इति प्रार्थनां कुर्मः तेन श्लोक नंबर 28 पश्यामः तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः गुणागुणेषु वर्तन्त इति मत्वा न सज्जते श्लोकं द्विवारं पठन्तु पदच्छेदं पश्यन्तु शीघ्रं अन्वयं वदन्तु तत्ववित् इज द वर्ड वेरी वेरी पवर्फुल वर्ड तत्ववित् तत् त्वम् इति वित् इत्यपि अस्माभिः तत्र पदस्य पूर्णच्छेदं कर्तुं शक्यते तत्वासना इज वन वर्ड इन ललितासहस्रनामम् द स्पेशालिटी ऑफ ललितासहस्रनामम् इज देर आर नो रिपीटेड वर्ड्स But a few words seem to be repeated as a word by itself. For the example, Tattvasana. But the Namavali Bhaga, if you see, the split will be different. Tattvasana will be there in one place. Tat, Tvam, Ityadi, Tatra Namavali Madhye, it will be separated. Evam Pashyamaschete, Tattva वित् यः तत्त्वं जानाति वन् हू नोस् द फिलासफी तत् त्वम् इति यः वेत्ति सः तत्त्ववित् अहं ब्रह्मास्मि तत्त्वमसि तत्र वाक्यत्रयेषु टु इम्पार्टेण्ट् वाक्य अहं ब्रह्मा अस्मि विच् गिव्स् द नान् डुवेलिटि अद्वैतस्य तत्र प्रतिष्ठापनं भवति तत् त्वमसि यदि वयं तत्र सर्वकलियुगदैवं शास्ता यः अस्ति तस्य सन्निधौ तत्र शबरीमलै मध्ये अपि गच्छामश्चेत् तत्रापि तत्र प्रतिष्ठापितं स्थापितमस्ति तत्त्वमसि इति वाक्यमेव तत्र परं वाक्यमेव तत्र एम्बेडेड् कृतमस्ति एवं तत्त्ववित् द क्लियर् डिफरेन्स् बिट्वीन् अ तत्त्ववित् एण्ड् A man of ignorance, yatas, man of knowledge and a man of ignorance yadasti, tatra bhedaha kalpitaha vartate. Shunvan kinchit anvayamapi prayatnam kurvantu. Vishayaha, the intention of this has already been told before. यः तत्त्ववित् भवति सः न सज्जते सिंपल तत्त्ववित् न सज्जते दट इज द वाक्य वन हू नोस् द रियालिटी ही डस् नाट् गेट् अटाच्ड् सज्जते इत्युक्ते अटाच्ड् ही डस् नाट् गेट् अटाच्ड् दट इज द मेन् क्रक्स् आफ् द श्लोक Tattvavit, one who is a real knower, will not get attached to anything, to the duties, to the phala, to the people around, to the vishaya around. When he is not attached, he does not react to it. He does not get tatra kamakrodadi nivrittaha bhavati. Tatra sarvada sukhabharitaha bhavati. Sarvada ananda mayaha bhavati saha. Yameva ativa saralatya jnatum shakyate. Once that attachment slash expectation is gone, then it is always bliss. The world becomes a blissful place. Ativa saralatya uktamasti. Bhavatu pashyamaha padachedaha tattvavit tu mahabaho. Tattvavit tu mahabaho. Gunakarma vibhagayoho guna gunaha tatra guneshu vartantya iti matva na sajjate. Pashyamaha. He mahabaho. He mahabaho. Again we have seen that yada kadapi tatra important points have to be told. Points wherein the dhiratva of Arjuna should be awakened. Dhira, again we have seen the definition. Dhiraha, tatra, who are dhiras? Those who are the realized soul people are only dhiraha. Not just a mastery in a sword or archery is not a dhira. So dhiratva of Arjuna, when it should be awakened, he uses all the words like mahabaho, parantapa, ityadikam, shatrunjaya, gudakesha, dhananjaya, ityadikam saha use karoti. Yada tatra, softer aspects have to be imparted to Arjuna. He partha, he kaunteya, ityadikam, all the softer words which are relating to the relationship ritya api saha tatra vadati. Evam tatra, he mahabaho iti atra sambodhanam kritamasti. Gunakarma vibhagayoho tattvavit tu, yadi vayam pashyamaschete, tatra gunaha guneshu vartante iti matva na sajjate. He does not become attached. A person who is a tattvavit, he understands the guna karma vibhaga. Even later on we will see chaturvarnyam mayasrishtam guna karma vibhagashah tasya kartaram apimam vidya kartaram avyam ityapi. The chaturvarnya krama, which is one of the most greatly misunderstood concept in this world today, and which has been misused also and has been abused. Tadrsha chaturvarnyam api guna karma vibhagashah eva kritamasti iti tatra agre asmabhi drashtum shakyate. Paramanu understands that guna and karma. Guna again the inherent skill sets, karma is the acquired skill sets and the allocated duty skill sets which are there. So we will see that in detail. Tadrsha division one who understands tattvavit, so he really understands the concepts, and knowing that all this is because of the prakritehe gunaihi kriyate iti matva, he knows this and he does not get attached either to the activities or to the fruits or to the situations or to the people around. He does not get attached. So where is he actually bringing Arjuna to? My dearest Arjuna, please become a tattvavit. You are not getting attached to this, and please do your allocated duty, whatever is there, please do that. Tadeva tena vaktum prayatnam kriyate. Etat shlokasya purna vivaranam agami kakshayam pashyamaha. So agami kaksha shvaha kartum shakyate. We can have the class tomorrow itself, as because of Thursday we will have it tomorrow itself. Shvaha agami kaksham pashyamaha tasmin.